प्रगतिपथे निरन्तरं संवर्धमानेभ्यः संस्कृतभाषारतेभ्यः प्रियेभ्यः संस्कृतसाप्ताहिकी श्रोत्रीजनेभ्यः कल्याणविषयकं नमनं समर्पयन्त्यहं निधिः तिवारी समेषां श्रोतृवृन्दानां स्वागतं व्याहरामि। तावत् शास्त्राणि उत वा शस्त्राणि समाश्रित्य जनाः सबलाः भवन्तीति अथ च स्वभाग्यस्य नियति निर्धारणमपि कुर्वन्ति। शास्त्रेषु भाग्यस्य अर्थो विद्यते एका पूर्वनिर्धारिता नियतव्यवस्था, या हि कस्यापि व्यक्तेः जीवने सम्भाव्यघटनाः निर्धारयति। अस्तु, साम्प्रतं सर्वादौ भाग्यं समाश्रित्य सुभाषितवचनमेकं शृणुमो वयं दिव्यानन्द झा इत्यनेन श्रावितम्।
रङ्कं करोति राजानं, राजानं रङ्कमेव च, धनिनं निर्धनं चैव, निर्धनं धनिनं विधिः।
श्रोतारः, भारत भाग्य विधाता इत्ययं राष्ट्रगानस्य वाक्यांशः देशस्य भविष्यस्य युवशक्तेः प्रतिनिधित्वं करोति, ये देशस्य भविष्यम् आकारयति। तावत् राष्ट्रभक्तियुतं प्रसंगं भाति मे भारतम् इति गीतं श्रावयति अस्मदीया सहयोगिनी निधिः झाः।
भाति मे भारतम्, भाति मे भारतम्, भूतले भाति मे नारतम्, भारतम् भाति मे भारतम्, भाति मे भारतम्, भूतले भाति मे नारतम्, भारतम् मानवा मानितम्, दानवा बाधितम्, निर्जराराधितम्, सज्जना साधितम्, पण्डितैः पूजितम्, पक्षिभिः कूजितम्, भूतले भाति मे नारतम्, भारतम् भाति मे भारतम्, भाति मे भारतम्, भूतले भाति मे नारतम्, भारतम् भूतले भाति मे नारतम्, भारतम्।
प्रियाः मे श्रोतारः, अधुना समग्र देश विदेशयोः समसामयिक वार्ताः, अन्ताराष्ट्रिय वार्ताः, क्रीडा वार्ताः च समादाय आगच्छतीति अस्मदीया सहयोगिनी सुषमा कुमारी।
जम्मू कश्मीरे पहलगाम जनपदे आतंकी आक्रमणमालक्ष्य उपत्यकायां सुरक्षा वर्धिता। आतंकीनां निगडनार्थं सेना केन्द्रीय आरक्षितारक्षिबलस्य भटाश्च संयुक्त रूपेण जम्मू कश्मीरे अभियानं प्रारब्धम्। केन्द्रीय गृहमन्त्रिणा अमितशाहेन श्रीनगरे उच्चस्तरीय सुरक्षा समीक्षा सम्भाषणं विहितम्। अमेरिकीय राष्ट्रपतिना डोनाल्ड ट्रम्पेण प्रधानमन्त्रिणे नरेन्द्र मोदिने दूरभाषयन्त्रे स्वीय पूर्ण समर्थनस्य आश्वासनं प्रदत्तम्। संयुक्त राष्ट्र महासचिवं समेत्य विश्वस्य प्रमुख नेतृभिः साकम् आक्रमणमिदं कट्वालोचितम्। आईपीएल क्रिकेट श्रृंखलायां लखनऊ नगरे दिल्ली कैपिटल्स दलेन लखनऊ सुपर ज्वाइंट्स दलं पराभूतम्।
श्रोतारः, अधुना समागतः ज्ञान विज्ञान प्रभागः, यत्र काव्यशास्त्रं समुद्दिश्य सुरेश चन्द्र शर्मणा साकं साक्षात्काराय आकाशवाण्याम् उपस्थिता वर्तते डॉक्टर रूबी महोदया। आगच्छन्तु सम्प्रति एनं संवादं श्रोष्यामो वयम्।
काव्यशास्त्र विनोदेन कालो गच्छति धीमताम्, व्यसनेन मूर्खाणां निद्रया कलहेन वा। काव्यशास्त्र विषय परात्मके साक्षात्कार प्रभागे एतस्मिन् समेषां संस्कृतानुरागिणां स्वागतम्। प्रियाः देववाणी समुपासकाः श्रोतारः, आकाशवाण्यां काव्यशास्त्र विषये संवादाय अस्माभिः सह समुपस्थिताः सन्ति दिल्ली विश्वविद्यालयान्तर्गतं श्यामा प्रसाद मुखर्जी महाविद्यालये सहायकाचार्याः डॉक्टर रूबीवर्याः। रूबी महोदयानां हृदयान्तस्थभावेन आकाशवाणी पक्षतः अहं सुरेश चन्द्र शर्मा हार्दिकम् अभिनन्दनं स्वागतं च वर्तामहे।
नमो नमः, अहम् अपि अत्र आगत्य हर्षम् अनुभवामि।
महोदयाः, संवाद प्रभागस्य एतस्य प्रथमे अंशे प्रश्नः यत् काव्यं नाम किम् अथवा काव्यस्य कति भेदाः प्रचलिताः सन्ति।
कव्यति इति काव्यम्। विश्वनाथ अनुसारं वाक्यं रसात्मकं काव्यम्। काव्यस्य मुख्यतया द्वौ भेदौ प्रचलिता, प्रथम गद्यकाव्यम्, पद्यकाव्यम्, चम्पूकाव्यम् च, द्वितीय दृश्यकाव्यम्, श्रव्यकाव्यम् च।
सम्यक् महोदयाः, सम्प्रति प्रश्नाः यत् काव्यस्य रचना किमर्थं जाता अथवा काव्यरचनायाः प्रयोजनं किम् श्रोताराः ज्ञातुमिच्छन्ति।
काव्यरचना उत्तमा अधम मध्यानाम नडानाम कर्म संश्रयम हितोपदेश जरणम धृती क्रीड़ा सुखादि कृत्य सुखार्थानाम श्रमार्थानाम शोकार्थानाम तपस्वीनाम विश्रांति जननम काले नाट्य में तद भविष्यति।
ये उत्तमाः सन्ति, अधमाः सन्ति, ये मध्यमाः सन्ति समेभ्यः।
भरत अनुसारेण आनंद प्रदान करणेन काव्यस्य प्रमुख प्रयोजनम गण्यते। ये दुखिना श्रमिका एतत् सदृशा ये अन्या जना तेव्या सुखम प्रदानम एव काव्यस्य प्रमुखम लक्ष्यम अस्ति। काव्य माध्यमेन धर्म अर्थ काम मोक्षस्य मार्ग प्रशस्यते। उक्तम् धर्म्यम यशस्य मायुष्यम हितम बुद्धि विवर्धनम लोकोपदेश जननम नाट्यमेतद् भविष्यति। एतन् माध्यमेन लोक व्यवहारः अपि शिक्षते।
बहु समीचीनम् महोदयाः, सम्प्रति प्रश्नः यत् काव्यशास्त्रे रसाणां प्रमुखं स्थानम्, वयं ज्ञातुमिच्छामः रसविषये तेषां संख्याविषये च।
महोदय, मनुष्येभ्यः आनन्दानुभूति रसमाध्यमेन एव भवति। एतदर्थं काव्येषु रस एव प्रमुखं तत्त्वमस्ति। रस तत्त्वम् आत्मतत्त्वम् रूपेण अपि गण्यते।
आत्मतत्त्वम् अन्तर्निहितं यत् तत्त्वं वर्तते।
आम्, रस तत्त्वम् अलौकिकम् अनिर्वचनीयम् ब्रह्मानन्द सहोदरम् इति मन्यते। एतत् उच्यते सत्त्वोद्रेकात् खण्ड स्वः प्रकाशानन्द चिन्मयः वेद्यान्तर सम्पर्क शून्यो ब्रह्मानन्द सहोदर लोकोत्तर चमत्कार प्राण कैश्चित् प्रमात्रिभिः स्वाकारवद् भिन्नत्वे नायक मास्वाद्यते रसः। साहित्य शास्त्र विद्वत् अनुसारेण अतः तैत्तिरीय उपनिषद अनुसारेण रसो वैसा रसानाम संख्या भरत मुनि अनुसारे अष्टौ। एतद् उच्यते श्रृंगार हास्य करुण रौद्र वीर भयानका विभत्स अद्भुत संज्ञौ चित्य अष्टौ नाट्य रसा स्मृता। श्रृंगार हास्य करुण रौद्र वीर भयानक विभत्स अद्भुत इति अष्टौ रसा भरतानुसारेण।
बहु समीचीनम् महोदयाः, सम्प्रति प्रश्नः यत् काव्यशास्त्रानुसारेण रसोत्पत्तिः कथम् इत्येतद् विषये अस्माकं श्रोतारः ज्ञातुमिच्छन्ति।
भरतमुने रसतत्त्वस्य प्रथम प्रणेत्री रूपेण आमान्यते। नाट्यशास्त्रे षष्ठे अध्याये रससूत्रस्य विवेचनम् कृतम्। उक्तम् विभावानुभाव व्यभिचारी संयोगाद्र रस निष्पत्ति तद अनुसारेण विभाव अनुभाव संचारी भावानाम संयोगेन रसोत्पत्ति
एतेषां त्रयाणां संयोगेन
संयोगेन रसोत्पत्ति भवति।
बहु समीचीनम् महोदयाः, सम्प्रति प्रश्नः यत् वर्तमाने सन्दर्भे काव्यशास्त्रस्य उपयोगिता प्रासंगिकता च का इत्येतद् विषये अस्माकं श्रोतारः ज्ञातुमिच्छन्ति।
महोदय, जीवने नित्य प्रतिदिनी समागतेभ्यः दुःखेभ्यः समस्याभ्यश्च निवृत्त्यर्थं काव्यस्य महत्वपूर्णा भूमिका भवति। तन्माध्यमेन व्यक्ति दुःखेभ्यः निवृत्तिं प्राप्नोति, परमानन्द प्राप्ति कर्तुं समर्थो भवति।
ईश्वर प्राप्तिः परमानन्द प्राप्तिः एतन् माध्यमेनैव।
आमाम्, यत् काव्य माध्यमेन नाट्य माध्यमेन च संभव। मनुष्य जीवनस्य प्रमुखम् उद्देश्यम् या आनन्दानुभूतिः केवलं काव्यशास्त्र माध्यमेन प्राप्तुं शक्यते।
मनुष्य जीवन से यत प्रमुख उद्देश्य आनंदानुभूति
आनंदानुभूति भवत मानव चेतना संपन्न संवेदनशीलश्च प्राणी तस्य मनः शरीरम् सुख दुख प्रेम दया क्रोध आशा इत्यादि विर्भावे चलायमानो भवति स प्रकृतिवद एव प्रतिक्षणम् स्वान्तर्भावे परिवर्तनम् अनुभवति काव्यस्य माध्यमेन मानव उपर्युक्ता भावा विकसिता भवन्ति
महोदयाः सम्प्रति प्रश्नाः यत् काव्यशास्त्रे संप्रदाय विषये अपि उल्लेखः कृतः अतः सम्प्रति काव्यशास्त्रे संप्रदाय विषये श्रोतारः ज्ञातुमिच्छन्ति
काव्ये षड् संप्रदायाः प्रथम रस संप्रदाय द्वितीय अलंकार संप्रदाय तृतीय रीति संप्रदाय चतुर्थ औचित्य संप्रदाय पंचम वक्रोक्ति संप्रदाय एवं षष्ठम ध्वनि संप्रदाय
इति षड् संप्रदायाः सन्ति
रस संप्रदाय रस संप्रदायस्य प्रमुख आचार्य भरत मुनि अस्ति अस्य संप्रदायस्य प्रमुख तत्व रसो अस्ति अस्य प्रमुख सूत्र विभावानुभाव व्यविचारी संयोगात रस निष्पत्ति अस्ति
एतत् प्रमुखं तत्वं वर्तते
प्रमुखं रस एव प्रमुख तत्वं
वर्तते
वर्तन्ते अलंकार शास्त्रस्य प्रमुख आचार्य भामह महोदय अस्ति अस्य आधार ग्रंथ अलंकार सूत्रवृत्ति अस्ति अत्र काव्यशास्त्रस्य बाह्य अलंकरणं कृते वर्णनम् अस्ति इति संप्रदाय अस्य आधार ग्रंथ काव्यादर्श अस्ति
रीति संप्रदाय
रीति संप्रदाय
काव्यादर्श
अस्य आचार्य वावन महोदय अस्ति अस्मिन् संप्रदाये अपि काव्यस्य बाह्य अलंकरणं तत्वस्य वर्णनम् अस्ति चतुर्थ संप्रदाय औचित्य संप्रदाय अस्ति अस्य प्रमुख आचार्य क्षेमेन्द्र महोदय अस्ति तस्य औचित्य संप्रदाय विषये औचित्य विचार चर्चा इति ग्रन्थे उल्लेखं कृतम्
औचित्य विचार इति ग्रन्थः वर्तते तत्र अस्य उल्लेखः
तत्र उल्लेखितम् औचित्यं रस्य सिद्धस्य स्थिरं काव्यस्य
जीवितम्
पंचम वक्रोक्ति संप्रदाय अस्ति अस्य प्रमुख आचार्य कुन्तक महोदय अस्ति वक्रोक्ति संप्रदायस्य उल्लेखम् वक्रोक्ति काव्य जीवितम् इति ग्रन्थे उल्लेखिता तत्र उल्लेखिता विचित्रे वाविधा वक्रोक्ति रीति उच्यते अन्य संप्रदाय ध्वनि संप्रदाय अस्ति अस्य प्रमुख आचार्य आनंद वर्धन महोदय अस्ति तस्य ग्रन्थ
ध्वन्यालोक इति ग्रन्थ
वर्तते तद अनुसारम् ध्वनि काव्यस्य आत्मा
कथ्यते
उक्तम तत्र ध्वन्यालोक ग्रंथे काव्यस्य आत्मा ध्वनि रीति बुद्धेर यः समाम्नात पूर्व तस्याः भावं जगदुपरे भक्तमाहुस्तमन्ये केचिद् वाचाम् स्थितम् विश्ये तत्त्वमूजुस्तदीयम् तेन ब्रह्मा स हृदय मनः प्रीतये तत् स्वरूपम् आनन्दवर्धन अनुसारम् ध्वनि एव काव्यशास्त्रे प्रमुख तत्त्वम् अस्ति ध्वनि इति विषये आनंदवर्धन महोदय रस तत्वम उचितम स्थानम एतद अर्थम इदानीं आधुनिक काव्य शास्त्रे ध्वनि एव प्रमुख संप्रदाय कथ्यते सर्वे मन्यते
इति षट् संप्रदायाः सन्ति
एते षट् संप्रदायाः अस्ति
बहु समीचीनम् महोदयाः काव्य शास्त्र विषयम अभिलक्ष्य भवद्भिः प्रतिपादितैः विद्वद्वचोभिः वयम् धन्याः अनुगृहीताः आकाशवाणी पक्षतः पौनः पुन्येन भवद्भ्यः हार्दाः धन्यवादाः सादरम् प्रणामाः नमो नमः
धन्यवादः अत्र आकाशवाण्या संस्कृत एकांशी ये अधिकारिणः कर्मचारीश्च अनुरागीश्च तेभ्यः समेभ्यः धन्यवादम् प्रकटयामि नमो नमः
जयतु भारतम् जयतु संस्कृतम्
प्रियाः बान्धवाः अशेषे हि भारते संस्कृत भाषाम् अवलम्ब्य के च कार्यक्रमाः प्रचाल्यन्ते तेषाम् कार्यक्रमाणाम् सूच्यः प्रकाशयति अस्माकम् सहयोगी कृष्णप्रसादोपाध्यायः मिलित्वा आयान्तु श्रोष्यामः
स्वागतम् अत्र भवताम् भवतीनाम् च संस्कृत दिग्दर्शनाख्ये प्रकरणे ऐ प्रियांशः श्रोतारः महत् हर्षस्य विषयोऽयम् यत् सम्पूर्णे दिल्लीप्रदेशे संस्कृतभारतीपक्षतः दशदिवसीयसंस्कृतसम्भाषणशिबिराणाम् आयोजनम् सहस्राधिकसङ्ख्यायाम् समाचर्यते येषु शिविरेषु आबालवृद्धाः लक्षशः जनाः प्रातिभाग्यं कुर्वन्तः सन्ति. देहलीप्रदेशस्य प्रत्येकं गृहं प्रत्येकं सामाजिकस्थलञ्च गत्वा सहस्रशः संस्कृतानुरागिणः संस्कृतमित्राणि प्रचारं कुर्वन्तः सन्ति. अस्याभियानस्य प्रमुखोद्देश्यं वर्तते यत् गृहं गृहं प्रति संस्कृतस्य प्रापणं प्रतिमुखञ्च संस्कृतं ब्रूयादिति. ध्यातव्यमस्ति यत् अस्य विस्तृततमस्य महत्वाकांक्षिणः अभियानस्य समापनं राष्ट्रियस्तराणां संस्कृतकार्यकर्तॄणाम् उपस्थितौ भारतस्य गृहमन्त्रिणः अमितशाहस्य अध्यक्षतायां भव्यतमे कार्यक्रमे भविष्यति. एतेषां शिबिराणां शुभारम्भः अप्रैलमासस्य 23तमात् दिनाङ्कात् अस्ति समारब्धः. समापनञ्च भविष्यति मई मासस्य 4थे दिनाङ्के. अस्तु तावत्, शुभं भूयात्, धन्यवादाः.
अस्तु तावत् बालाः, भवतां कृतेऽपि कथम् अस्माभिः विस्मर्यते बालवल्लरी भागः, अद्य मूषकः सिंहं रक्षति इत्येतां कथाम् अवलम्ब्य समुपस्थिता वर्तते अस्मदीया सहयोगिनी कामना झा.
बालाः, अद्य अहम् एकां कथां श्रावयामि. कथायाः शीर्षकः अस्ति मूषकः सिंहः रक्षति. कस्मिंश्चित् वने एकः सिंहः निवसति स्म. तस्य गर्जनं सर्वे पशवः शृण्वन्ति स्म. एकदा सिंहः निद्रां कुर्वन् आसीत्. तस्मिन् काले एकः मूषकः तस्य शरीरे क्रीडति स्म. सिंहः जागर्ति. सः कोपेन मूषकं गृहीतुं प्रयत्नं करोति. मूषकः भयात् निवेदयति, भोजनार्थं न आगतः, केवलं क्रीडार्थम् आगतः. मां मारयतु, अहं भवतः उपकारं भविष्ये. सिंहः हसति, सः मूषकं मुञ्चति. कतिपय दिन अनन्तरम् एकः व्याधः सिंहः जालैः बद्धं करोति. सिंहः गर्जति. मूषकः सिंहस्य गर्जनं श्रुत्वा तत्र आगच्छति. सः तीक्ष्णदन्तैः जालं छिन्नति. सिंहः स्वातन्त्र्यं प्राप्नोति. ते उभौ मित्रे जाता. अतः कः लघु कः महान् चेति विचारः न कर्तव्यः. संकटे लघुजनः अपि उपकारी भवति.
प्रियाः बान्धवाः, एकं भारतं श्रेष्ठं भारतमिति अनुभागं स्वीकृत्य आगतास्ति मुदिता वेतालः, या हि भिन्नानि भाषागत वैशिष्ट्यानि कथयन्ति.
प्रथमं वाक्यमस्ति, भारतस्य दक्षिणभागे केरलम् अस्ति. पहला वाक्य है, भारत के दक्षिण भाग में केरल राज्य है. सिंधी में भारत जे दक्षिण भाग में केरल राज्य आहे. द्वितीयं वाक्यमस्ति, अस्य राजधानी तिरुवनंतपुरम अस्ति. दूसरा वाक्य है, इसकी राजधानी तिरुवनंतपुरम है. सिंधी में हिणजी राजधानी तिरुवनंतपुरम आहे. तृतीयं वाक्यमस्ति, अस्य पश्चिम भागे अरब सागरः अस्ति. तीसरा वाक्य है, इसके पश्चिम भाग में अरब सागर स्थित है. सिंधी में हिणजी पश्चिम भाग में अरब सागर आहे. चतुर्थं वाक्यमस्ति, पूर्व भागे वन संपदा पूर्णाः पर्वताः सन्ति. चौथा वाक्य है, पूर्व भाग में वन संपदा से परिपूर्ण पर्वत स्थित है. सिंधी में पूर्व भाग में वन संपदाओं में पूरो पर्वत आहे. पंचमं वाक्यमस्ति, केरल इति ईश्वरस्य स्वभूमि ही अपि कथ्यते. पांचवा वाक्य है, केरल को ईश्वर की अपनी भूमि भी कहा जाता है. सिंधी में केरल खे ईश्वर जी पेंजी भूमि चयो विन्दुआ. धन्यवादाः.
समापन वेलायाः प्रागेव अहं निवेदयामि यत् भवन्तः सर्वे स्वकीयं विचारं nsdsanskrit@gmail.com इत्येतस्मिन् अनुसंकेते प्रेषयन्तु कृपया. आगामिनी रविवासरे अस्मिन्नेव समये पुनः एकदा नवीनं क्षणं समादाय उपस्थिताः भविष्यामो वयम्. तावत् पर्यन्तं नमो नमः. जयतु संस्कृतं, जयतु भारतम्.